ऋषिगुम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिः वाजिनीवते धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमण्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनु वाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहि पुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचदति वक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम्बयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्वमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेळयीमहे असव्यो वसत्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृणयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्दियोर्ज्याम् याश्च देहस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु दे निशीयशल्याणामुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्मृणक्तु विश्वतः अथो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् जपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः तस्मिन् जराय त्विषीमते पतीनाम् पतये नमो नमो बभ्लुषाय विद्याधिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय ततावि क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाया क्रन्दयते पत्तीनाम् पतये नमो नम कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नम ककुपाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचिरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुंसभ्यो मुष्णताम् पतये नमो नमोऽसिमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावभ्यश्च वो नमो नमः सभापदिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपदिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविद्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुं हतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनेभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్ఠాయ చ నమో మీనుష్టమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఊర్మ్యాయ చావస్వన్యాయ చ నమః స్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చాపరజాయ చ నమో మధ్యమాయ చాపగల్భాయ చ నమో జఘన్యాయ చ బుద్ధ్యాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వర్మిణే చ వరూతినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో వృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమః తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః కామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్కారాయ నమః శంభవే చ మయో భవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్థ్యాయ చ కూల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లాద్యాయ చ నమః షష్ట్యాయ చ భేద్యాయ చ నమః శిఖత్యాయ చ ప్రవాహ్యాయ చ నమ ఇరిణ్యాయ చ ప్రపత్యాయ చ నమః కివంశిలాయ చ క్షయణాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ఠ్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చ లప్యాయ చ నమః ఊర్మ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగురమాణాయ చాభిఘ్నతే చ నమ ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రం నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మాభేర్మారోమో ఏషాం కించనామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజీ శివా రుద్రస్య భేషజీ తయానో మృడజీవసే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వేయాయ ప్రభరామహేమతిం యథా నశ్రవసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రోదనో మయస్కృతి క్షయద్వేయాయ నమసా విధేమతే యచ్చం చయోశ్చ మనురాయజే పితా దదశ్యామ తవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్ధకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వధే పితరం మోద మాతరం ప్రియామానస్తనుభో రుద్రరీరిషః మానస్తోకేతన ఏ మాన ఆయుషి మాను వోషు మాను అశ్వేషురీరిషః వీరాన్మానో రుద్రమానితో వదేర్ అవిష్మంతో నమసా విధేమతే ఆరాత్రే గోగ్న ఉత పూరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్తు రక్షాజనో అధిజ దేవ బ్రూహ్యథా చ నశర్మ యచ్చ త్రివర్హాః సుహిశ్రుతం గత్త సదయ్యువానం మృగన్న భీమముపహత్వముగ్రం మృడా చరిత్రే రుద్రస్తవాను మన్యంతే అస్మన్నివ పంతు సేనా పరిణో రుద్రస్య హేతిర్వృణత్తు పరిత్వేషస్య దుర్మతిరగాయో అవస్థిరా భగవద్భ్యస్తనుష్వమీభస్తోకాయతనయాయ మృడయా మీఢుష్టమశివతమ శివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిదాయ కృత్తిం వసాన ఆచర పినాకం బిభ్రదాగహి విగిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతుదాః సహస్రాణి సహస్రధా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనామురాకృధి సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యాం తేషాగుం సహస్రయోజనే వధన్వాని తన్మసి అస్మిన్మహత్యర్ణవేంతరిక్షే భవాసి నీలగ్రీవాశితికంఠా శర్వాధః క్షమాచరాః నీలగ్రీవాశితికంఠాదివగుం రుద్రా ఉపశ్రుతాః యే వృక్షేషు సస్మింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాసః కపర్దినః యే అన్నేషు వివిద్యంతి పాత్రేషు పిబగోజనాన్ యే పతాంపతిరక్షయ అయ్యభృతాయ వ్యుదః యే తీర్థాని ప్రచరంతి శృగావంతో నిషంగిణః య ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వదన్వాని తన్మసి नमो रुद्रेभ्यो ये पृथिव्याम् ये तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रवीचीर्दशोदीचीर्दशोर्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विश्वो यश्च नो देशितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दना नृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्व भुवनाभिदेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तरे तान् यज्ञस्य वायया सर्वानव यजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुस्तु यस्विषस्सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भेद्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगु शिवाभिमर्शनः शान्ति शान्ति शान्तिः ॐ अग्ना विष्णु सजोषसेमा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसिद्धिश्च मे भीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च महाधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे भस्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपदम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शयम् च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे भर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसूश्च मे सेरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मेन मित्रम् च मे अभयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्यश्च मे सवेतिश्च मे कृशिश्च मे वृष्टिश्च मे जयत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मेनम् च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेणवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे विरुधश्च मौषधयश्च मे कृष्टपच्चम् च मे कृष्टपच्चम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मेदाभ्यश्च मेधिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे दिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृक्ष म आधवनीयश्च म आग्नेयेर्धम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दिदिश्च मे दिदिश्च मे जौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पम् ताम्रक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रजन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्य मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौहे च मे पष्ठवाच्य मे पष्ठौहे च म उक्षा च मे वशा च मर्षभश्च मे देहच्च मे नड्वाम् च मे धेनुश्च म आयुर्यज्ञेन कल्पता प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च भिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च बहुवनश्च भुवनश्चाधिपतिश्च इडादे बहुर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि शगुंसिषद्विश्वे देवा सोक्तवा च पृथिविमातर्मामाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमती देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभाय पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुर्यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् ಶನ್ನೋಸ್ತು ದ್ವಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಸಹಸ್ರಶೀರ್ಷ ಪುರುಷ ಸಹಸ್ರಾಕ್ಷ ಸಹಸ್ರಪಾತ್ ಸಭೂಮಿಂ ವಿಶ್ವತೋ ಮೃತ್ವಾ ಅತ್ಯತಿಷ್ಠ ದಶಾಗುಲಂ ಪುರುಷ ಏವೇದಗುಂ ಸರ್ವಂ ಯದ್ಭೂತಂ ಯಚ್ಚ ಭವ್ಯಂ ಉತಾಮೃತತ್ವಸ್ಯೇಷಾನಃ ಯದನ್ನೇನಾತಿರೋಹತಿ ಏತಾವಾನಸ್ಯ ಮಹಿಮಾ ಅಭೋಜ್ಯಾಯಾಗುಶ್ಚ ಪುರುಷಃ ಪಾದೋಸ್ಯ ವಿಶ್ವಾಭೂತಾನಿ ತ್ರಿಪಾದಸ್ಯಾಮೃತಂ ದಿವೆ ತ್ರಿಪಾದೂರ್ಧ್ವೌ ದೈತ್ಪುರುಷಃ ಪಾದೋಸ್ಯೇಹಾಭವಾತ್ ಪುನಃ ತಥೋ ವಿಶ್ವಂ ವ್ಯಕ್ರಾಮತ್ ಸಾಶನಾಶನೆ ಅಭಿ ತಸ್ಮಾತ್ ವಿರಾಡ ಜಾಯತ ವಿರಾಜೋ ಅಧಿಪುರುಷಃ ಸ ಜಾತೋ ಅತ್ಯಧಿಚ್ಯತ ಪಶ್ಚಾತ್ ಭೂಮಿಮತೋ ಪುರಃ ಯತ್ಪುರುಷೇನ ಅವಿಷಾ ದೇವಾ ಯಜ್ಞಮತನ್ವತ ವಸಂತೋ ಅಸ್ಯಾಧಿರಾಜ್ಯಂ ಗ್ರೀಷ್ಮ ಹಿಗ್ಮ ಶರದ್ದವೇ ಸಪ್ತಾಸ್ಯಾಸನ್ ಪರಿಧಯಃ ತ್ರಿಸಪ್ತ ಸಮಿದ ಕೃತಾಃ ದೇವಾಯ ಯಜ್ಞಂ ತನ್ವಾನಾಃ ಅಬಧ್ನಂ ಪುರುಷಂ ಪಶುಂ ತೈಯಜ್ಞಂ ಬರಿಷಿ ಪ್ರೌಕ್ಷನ್ನ ಪುರುಷಂ ಜಾತಮಗ್ರತಃ ತೇನ ದೇವಾ ಅಯಜಂತ ಸಾಧ್ಯಾ ಋಷಯಶ್ಚ ವೇ ತಸ್ಮಾದ್ಯಜ್ಞಾತ್ ಸರ್ವಹುತಃ ಸಂಭೃತಂ ಪೃಷದಾಜ್ಯಂ ಪಶೋಗಸ್ತಾಗಶ್ಚಕ್ರೇ ವಾಯವ್ಯಾನ ಆರಣ್ಯಾನ್ ಗ್ರಾಮ್ಯಾಶ್ಚ ವೇ ತಸ್ಮಾದ್ಯಜ್ಞಾತ್ ಸರ್ವಹುತಃ ಋಜಸ್ಸಾಮಾನಿ ಜಗ್ನಿರೆ ಛಂದಾಗುಂಸಿ ಜಗ್ನಿರೆ ತಸ್ಮಾತ್ ಯಜುಸ್ತಸ್ಮಾದಜಾಯತ ತಸ್ಮಾದಶ್ವಾಜಾಯಂತ ಏಕೇಜೋ ಭಯಾದತಃ ಗಾವೋ ಜಗ್ನಿರೆ ತಸ್ಮಾತ್ ತಸ್ಮಾಜಾತ ಅಜಾವಯಃ ಯತ್ಪುರುಷಂ ವ್ಯದದುಃ ಕತಿಧಾ ವ್ಯಕಲ್ಪಯನ್ ಮುಖಂ ಕಿಮಸ್ಯ ಕೋ ಬಾಹೋ ಕಾ ಭೂರೂಪಾದಾವುಚ್ಯೇತೆ ಬ್ರಾಹ್ಮಣೋಸ್ಯ ಮುಖಮಾಸೀತ್ ಬಾಹೋರಾಜನ್ಯಕೃತಃ ಊರೋ ತದಸ್ಯ ಯದ್ವೈಶ್ಯಃ ಪದ್ಭ್ಯಾಗುಂ ಶೂದ್ರೋ ಅಜಾಯತ ಚಂದ್ರಮಾ ಮನಸೋ ಜಾತಃ ಚಕ್ಷೋ ಸೂರ್ಯೋ ಅಜಾಯತ ಮುಖಾರಿಂದ್ರಸ್ಯಾಗ್ನಿಶ್ಚ ಪ್ರಾಣಾದ್ವಾಯುರಜಾಯತ ನಾಭ್ಯಾ ಆಸೀದಂತರಿಕ್ಷಂ ಶೇಷ್ಣೋದ್ಯೋ ಸಮವರ್ತತ ಪದ್ಭ್ಯಾಂ ಭೂಮಿರ್ದಿಶ ಶ್ರೋತ್ರಾತ್ ತಥಾ ಲೋಕಾಗುಂ ಅಕಲ್ಪಯನ್ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಸ್ತು ಪಾರೇ ಸರ್ವಾಣಿ ರೂಪಾನಿ ವಿಚಿತ್ಯ ಧೀರಃ ನಾಮಾನಿ ಕೃತ್ವಾ ವಿವದನ್ಯದಾಸೇ ಧಾತಾ ಪುರಸ್ತಾದ್ಯ ಮುದಾ ಜಹಾರ ಶಕ್ರ ಪ್ರವಿದ್ವಾನ್ ಪ್ರದಿಶಶ್ಚ ತಸ್ರಃ ತಮೇವಂ ವಿದ್ವಾನ್ ಅಮೃತಯ ಭವತಿ ನಾನ್ಯ ಪಂಥಾ ಅಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾಃ
तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजायन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मणे ऋचम् रामम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवासन्वशे ह्रीष्यते लक्ष्मीश्च पत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्रम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणीमहे गातुयज्ञाय गातुयज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो मात्सुद्विपदे शं चतुष्पदे ॐ शान्ति 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 ॐ अत्रिणात्वाग्निमेहन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागुस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशादिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्वसे ॐ शान्ति शान्ति शान्तिः ॐ यच्छन्दसाम् ऋषभो विश्वरूपः छन्दोऽभ्योऽद्यमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयातम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया मेधा देवि जुषमाणा नागा विश्वासे भद्रा सुमनस्य माना त्वया दृष्टानुदमानादुरुक्ता बृहद्वदेव विदथे सुवीराः त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुदत्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेधे मेधाम इन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विना बुभावाधत्ताम् पुष्करस्रजा अप्सरासु चया मेधा गन्धर्वेषु चयन्मनः दैवे मेधा सरस्वति सामा मेधा सुरभिर्जुषता गुस्वाहा आमान् मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या ऊर्जस्वती पयसा पिन्वमाना सा वा मेधा सुप्रतीका जुषन्ताम् मयि मेधाम् मयि प्रजाम् मयि अग्निस्तेजो दधातु मयि मेधाम् मयि प्रजाम् मयि इन्द्र इन्द्रियम् दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो ब्राजो दधातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् ॐ शान्ति शान्ति शान्तिः
मेधाम् मयि मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयि सूर्यः सूर्यो मयि प्रजाम् प्रजाम् मयि सूर्यः प्रजामिति प्राजाम् मयि सूर्यः सूर्यो मयि मयि सूर्यो भ्राजो भ्राजः सूर्यो मयि मयि सूर्यो भ्राजः सूर्यो भ्राजो भ्राजः सूर्यः सूर्यो भ्राजो दधातु दधातु भ्राजः सूर्यः सूर्यो भ्राजो दधातु भ्राजो दधातु दधातु भ्राजो भ्राजो दधातु ददात्विति दधातु शान्ति शान्ति शान्तिः ॐ अग्निर्मे वाचश्रितः वाग्हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनोहृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि दिशो मे श्रोत्रे श्रोत्रगुम् हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि आपो मे रेतसि श्रिता रेतो हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रिता शरीरगुम् हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि ओषधि वनस्पतयो मे लोमसुश्रिता लोमानि हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि इन्द्रो मे बले श्रितः बलगुम् हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि पर्जन्यो मे मूर्ध्निश्रितः मूर्धा हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि ईशानो मे मन्यौ श्रितः मन्योर्हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि आत्मा म आत्महि श्रितः आत्मा हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः ॐ शान्ति 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 ॐ विष्णोर्नुकम् वीर्यानि प्रवोचम् यः पार्थिवानि विममे रजागुंसि यो अस्कभायदुत्तरगुम् सदस्थम् विचक्रमाणस्त्रेदोरुगायः విష్ణో రరాటమసి విష్ణో కృష్ణమసి విష్ణో శ్రప్తే స్థో విష్ణో స్యూరసి విష్ణో ధ్రువమసి వైష్ణవమసి విష్ణవే తదస్య ప్రియమభిపాతో అశ్యాం నరో యత్ర దేవయవో మదంతే ఉరుక్రమస్య సహి బంధురిత్తా విష్ణో త్వదే పరమే మధ్వ ఉత్సహ తతద్విష్ణుస్తవతే వీర్యాయ మృగో న భీమ కుచరో గిరిష్టా యస్యోరుషు త్రిషు విక్రమణేషు అభిక్షియంతి భువనాని విశ్వా పరో మాత్రయా తనువావృధాన నతే మహిత్వమన్వశ్నువంతి ఉభేతే విద్మరజతి పృథివ్యా విష్ణో దేవత్వం పరమస్య విత్తే విచక్రమే పృథివీ మేష ఏతా క్షేత్రాయ విష్ణుర్మనుషేదశస్యన్ ధ్రువాసో అస్య కీరయోజనా సహ ఉరుక్షితిగుం సుజనిమాచకార త్రిర్దేవ పృథివీ మేష ఏతా విచక్రమే శతర్చ సంమహిత్వా ప్రవిష్ణురస్తు తవ సస్తవీయాన్ ేషగృహ్యస్య స్థవిరస్య నామ అతో దేవా అవంతు నోయతో విష్ణుర్విచక్రమే పృథివ్యా సప్తధామభిః ఇదం విష్ణుర్విచక్రమే త్రేధాని రవే పదం సమూఢాస్య బాహుంసురే త్రీణి పదా విచక్రమే విష్ణుర్గోపాలాభ్యః తతో ధర్మాణి ధారయన్ విష్ణో కర్మాణి పశ్యయతో వ్రతాణి పశ్యే ఇంద్రస్య యుజ్య సఖా తద్విష్ణో పరమం పదం సదా పశ్యంతి సూరయః దివే చక్షురాతతమ్ తద్విప్రాసో విపన్యవోజాగ్రువాం తస్సమిందతే విష్ణో యత్పరమం పదం పర్యాప్త్యా అనంతరాయాయ సర్వస్తోమోతి రాత్ర ఉత్తమమహర్భవతి సర్వస్యాప్త్యే సర్వస్య యుద్ధ్యై సర్వమేవ తేనా ఆప్నోతి సర్వం జయతి శాంతి 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 రాజాదిరాజాయ ప్రసన్నకాయినే నమో వయం వయే శ్రవణాయ కుర్మహే సమే కామాన్ కామ కామాయ మహ్యం కామేశ్వరో వై శ్రవణో దదాతు కుబేరాయ వై శ్రవణాయ మహారాజాయ నమః స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేణ మహిమహిషా గోబ్రాహ్మణేభ్యః శుభమస్సు నిత్యం సమస్తలోకా సుఖినో భవంతు సమస్తలోకా సుఖినో భవంతు సమస్తలోకా సుఖినో భవంతు ఓం శాంతి శాంతి శాంతి